अथ नवमो अध्याय श्री भगवानुवाच इदं तु ते गुज्जतमं प्रवक्ष्यामनसूयवे ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मुक्षसे शुभात् राजविद्या राजगुज्जं पवित्रमिदमुत्तमं प्रत्यक्षावगमं धार्मं सुसुखं कर्तुमव्ययम् असद्दधानः पुरुषा धर्मस्यास्य परन्तप अप्राप्यमं निवर्तन्ते मृत्यु संसार वर्तमनि मया ततमिदं सर्वं जगदव्याक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहं तेष्वस्थितं न च मत्स्थानि भूतानि पश्य मे योगमैश्वरं भूतभिन्न च भूतस्थो ममात्मा भूतभावना यथाकाशस्थितो नित्यं वायुस्सर्वत्र गोमहान् तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकं कल्पक्षये पुनस्तानि कल्पादौ वृषिजम्यहम् प्रकृतिं स्वामवष्टभ्य वृषिजामि पुनः पुनः भूतग्राममिमं कृष्ण मवशं प्रकृतेर्वशात् न च मं तानि कर्माणि निबध्नन्ति धनञ्जय उदासीन वदासीन मशक्तं तेषु परमसु मयाध्यक्षेण प्रकृतिः शूयते सचराचरं हेतु नानेन कौन्तेय जगदपि परिवर्तते अवजानन्ति मां मुहुरा मानुषी तनुमाश्रितं परं भावमजानन्तु मम भूतमहेश्वरं मोघाशा मोघकर्माणो मोघज्ञानाविचेतसः राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रुता महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिता भजन्त्य नन्यमनसो ज्ञात्वा भूतादिमव्ययं सततं कीर्तयन्तो मां जतन्तश्च दृढव्रता नमस्यन्तश्च मां भक्त्या नित्ययुक्तायुपासते ज्ञानयज्ञेन च पन्ने जयन्तो मामुपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम् अहं क्रतुरहं यज्ञः स्वधाहमहमौषधं मन्त्रोह महमेवाज्य महामग्निरहंहुतं पिताहमस्य जगतो माता धाता पितामह वेद्यं पवित्रमोङ्कार ऋक्षाम यजुरेव च गतिर्भर्ता प्रभुस्साक्षी निवासशरणं सुहित प्रभवप्रलयस्थानं निधानं बीजमव्ययं तपाम्यहमहं वर्षं निगृह्यामुत्सृजामि च अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन त्रैविद्या मां सोमपापूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पूर्णामाशाद्य सुरेन्द्रलोका वश्नन्ति दिव्यान् दिविदेव भोगन् ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्तलोकं विशन्ति एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते अनन्नाश्चिन्तयन्तो मां জনা পর্যুপাসতে তেষাং নিত্যাভিযুক্তানাং যুবক্ষেমং বহাম্যহম্। ये पन्या देवता भक्ता ययन्ते श्रद्धयान्विता तेऽपि मामेव कौन्तेया ययन्त्या विधिपूर्वकम्। अहं हि सर्वयज्ञानं भोक्ता च प्रभुरेव च न तु मामभिजानन्ति त्वत्ते नातश्च वन्ति ते यान्ति देवव्रता देवान् पितॄन् यान्ति पितृव्रता भूतानि यान्ति भूतेज्या जान्ति मदजायिनोऽपि मम्। पत्रं पुष्पं फलं तोयं जो मे भक्त्या प्रयच्छति तदहं भक्तूपहृता मश्नामि प्रजतात्मनः। यत्करोषि यदश्नासि यज्जुहोषि ददासि च यत्तपश्यसि कौन्तेय तत् कुरुष्य मदरमणम्। शुभाशुभफलैरेवं मोक्षसे कर्मबन्धनैः संन्यास योगयुक्तात्मा विमुक्तो मामुपैष्यसि। समोऽहं सर्वभूतेषु न मे देशोऽस्ति न प्रिया ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् अपि चेत् सुदुराचारो भजते मामनन्यभाक् साधुरेवासमन्त्यव्या सम्यागवशितो हिष क्षिप्रं भवति धर्मात्मा सश्रच्छान्तिं निगच्छति कौन्तेया प्रतिजानीहि न मे भक्तः प्रणश्यति। मां हि पार्थं व्यपाश्रित्य येऽपिषु पापयोनयः स्त्रियो वैश्यास्तथा शूद्रा स्तेऽपि जान्ति परां गतिं। किं पुनर्ब्रह्मणः पुण्या भक्ता राजर्षयस्तथा अनित्यमसुखं लोकं मिमं प्राप्य भजस्व मम्। मनमना भव मदभक्तो मदयाजीमं नमस्कुरु मामे वैश्वसि युक्त्वैव मात्मानं मत्परायण। ॐ तत्सत् इति श्रीमहाभारते शतसहस्रं संहितायां वैयाशिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्या राजगुह्ययोगो नाम नवमोऽध्यायः।